अथ शिवभुजङ्गम्। गलद्दानगण्डं मिलद्भृङ्गषण्डं चलच्चारुशुण्डं जगत्त्राणशौण्डम् कनद्दन्तकाण्डं विपद्भङ्गचण्डं शिवप्रेमपिण्डं भजे वक्रतुण्डम् शिवप्रेमपिण्डं भजे वक्रतुण्डम् परं तत्त्वमर्थं चिदाकारमेकं तुरीयं त्वमेयं हरिब्रह्ममृग्यं परब्रह्मरूपं मनोवागतीतं महशैवमीडे मनोवागतीतं महशैवमीडे स्वशक्त्यादिशक्त्यन्त मनोहारि सर्वाङ्गरत्नोरुभूषम् जटाहीन्दुगङ्गास्थिशम्याकमौलिं पराशक्तिमित्रं नुमः पञ्चवक्त्रम् पराशक्तिमित्रं नुमः पञ्चवक्त्रम् शिवेशानतत्पुरुषाघोरवामादिभिः पञ्चभिर्हृन्मुखैः षड्भिरङ्गैः अनौपम्य षट्त्रिंशतं तत्त्वविद्याम् अतीतं परं त्वां कथं वेत्ति को वा अतीतं परं त्वां कथं वेत्ति को वा प्रवालप्रवाहप्रभाषोणमर्धं मरुत्वन्मणि स्वसेवा समाया तदेवा सुरेन्द्रानमन्मौलिमन्दारमालाभिषक्तम् नमस्यामि शम्भो पदाम्बोरुहं ते भवाम्बोधिपोतं भवानी विभाव्यम् भवाम्बोधिपोतं भवानी विभाव्यम् जगन्नाथ मन्नाथ गौरी सनाथ प्रपन्नानुकम्पिन् विपन्नार्तिहारिन् महस्तोममूर्ते समस्तैकबन्धो नमस्ते नमस्ते पुनस्ते नमोस्तु नमस्ते नमस्ते पुनस्ते नमोस्तु विरूपाक्ष विश्वेश विश्वादिदेवत्रयी मूलशम्भो शिवत्र्यम्बकत्वम् प्रसीद स्मरत्राहि पश्यावमुक्त्यै क्षमां प्राप्नुहि त्र्यक्षमां रक्षमोदात् क्षमां प्राप्नुहि त्र्यक्षमां रक्षमोदात् महादेव देवेश देवादिदेव स्मरारे पुरारे यमारे हरेति ब्रुवाण स्मरिष्यामि भक्त्या भवन्तं ततो मे दयाशील देव प्रसीद ततो मे दयाशील देव प्रसीद त्वदन्यशरण्यः प्रपन्नस्य नेति प्रसीद स्मरन्नेव हन्यास्तु दैन्यं न चेत्ते भा ततो मे दयालो सदा सन्निधेः। पशुंवेत्सि चेन्मां तमेवाधिरूढः, कलङ्कीति वा मूर्ध्नि धत्से तमेव। द्विजिह्वः पुनः सोऽपि ते कण्ठभूष, त्वदङ्गीकृताः शर्व सर्वेऽपि धन्याः। त्वदङ्गीकृताः शर्व सर्वेऽपि धन्याः। न शक्नोमि कर्तुं परद्रोहलेशं, कथं प्रियसे त्वं न जाने गिरीश। तथा हि प्रसन्नोऽसि कस्यापि कान्ता, सुतद्रोहिणो वा पितृद्रोहिणो वा। सुतद्रोहिणो वा पितृद्रोहिणो वा। स्तुतिं ध्यानमर्चां यथावद्विधातुं, भजन्नप्यजानन् महेशावलम्बे। त्रसन्तं सुतं त्रातुमग्रे मृकण्डोर्यमप्राणनिर्वापणं त्वत्पदाब्जम्। यमप्राणनिर्वापणं त्वत्पदाब्जम्। शिरोदृष्टिहृद्रोगशूलप्रमेहज्वरार्षो भग्नोऽस्मि दूये, विषण्णोऽस्मि सन्नोऽस्मि खिन्नोऽस्मि चाहम्। भवान् प्राणिनामन्तरात्मासि शम्भो, ममाधिं न वेत्सि प्रभो रक्ष मां त्वम्। ममाधिं न वेत्सि प्रभो रक्ष मां त्वम्। त्रिदक्ष्णोः कटाक्षः त्र्यक्षयत्र क्षणं क्ष्मा च लक्ष्मी स्वयं तं वृणाते। किरीटस्फुरच्चामरच्छत्रमाला कलाची गजक्षौमघोषा विशेषैः। किरीटस्फुरच्चामरच्छत्रमाला कलाची गजक्षौमघोषा विशेषैः। भवायापि मात्रे च पित्रे, मृडान्यै मृडायाप्यघघ्न्यै मखघ्ने। शिवाङ्गै शिवाङ्गाय कुर्मः शिवायै, शिवायाम्बिकायै नमस्त्र्यम्बकाय। शिवायाम्बिकायै नमस्त्र्यम्बकाय। भवद्गौरवम् लघुत्वं विदित्वा, प्रभो रक्षकारुण्यदृष्ट्यानुगम्यम्। शिवात्मानुभावस्तु तावक्षमोऽहं, स्वशक्त्या कृतं मे पराधं क्षमस्व। स्वशक्त्या कृतं मे पराधं क्षमस्व। कर्णरन्ध्रं व्रजेत् कालवाह, द्विषत्कण्ठघण्टा घणात्तारनादः। वृषाधीश मारुह्य देवौपवाह्यं, तदा वत्समाभिरिति प्रीणय त्वम्। तदा वत्समाभिरिति यदा दारुणा भाषणा भीषणा मे भविष्यन्त्युपान्ते कृतान्तस्य दूताः। तदा मन्मनस्त्वत्पदां भोरुहस्तं कथं निश्चलं स्यान्नमस्ते स्तुशम्भो कथं निश्चलं स्यान्नमस्ते स्तुशम्भो यदा दुर्निवारौ यथोऽहं शयानो लुठन्निश्वसन्निसृता व्यक्तवाणिः तदा जह्नुकन्या जलालङ्कृतं ते जटामण्डलं मन्मनो मन्दिरं स्यात् जटामण्डलं मन्मनो मन्दिरं स्यात् यदा पुत्रमित्रादयो मत्सकाशे रुदन्त्यस्य हा कीदृशीयं दशे तदा देवदेवेश गौरीश शम्भो नमस्ते शिवायेत्यजस्रं ब्रवाणी नमस्ते शिवायेत्यजस्रं ब्रवाणी यदा पश्यतां मामसौ वेत्ति नास्मान् अयं श्वास एवेति वाचो भवेयुः तदा भूतिभूषं भुजङ्गावनद्धं पुरारे भवन्तं स्फुटं भावयेयम् पुरारे भवन्तं स्फुटं भावयेयम् यदा यातना देहसन्देहवाही भवे तदा काशशीतांशुसङ्काशमीश स्मरारेव पुस्ते नमस्ते स्मराणि स्मरारेव पुस्ते नमस्ते स्मराणि यदा पारमच्छायमस्थानमद्भिर्जनैर्वा विहीनं गमिष्यामि तदा तं निरुन्धन् कृतान्तस्य मार्गं महादेव मह्यं मनोज्ञं प्रयच्छ महादेव मह्यं मनोज्ञं प्रयच्छ यदा रौरवादिस्मरन्नेव भीत्या व्रजाम्यत्रमोहं महादेव घोरम् तदा यदा श्वेतपत्रायता लङ्घ्यशक्तेः कृतान्ताद्वयं भक्तवात्सल्यभावात् तदा पाहि मां पार्वतीवल्लभान्यं न पश्यामि पातारमेतादृशं मे न पश्यामि पातारमेतादृशं मे इदानीमिदानीं मृतिर्मे भवित्रीत्यहो सन्ततं चिन्तया पीडितोऽस्मि कथं नाम माभून्मृतौ भीतिरेषा नमस्ते गतीनां गते नीलकण्ठ नमस्ते गतीनां गते अमर्यादमेवाहमाबालवृद्धं हरन्तं कृतान्तं समीक्षास्मि भीतः मृतौ तावकाङ्घ्र्यब्जदिव्यप्रसादात् भवानीपते निर्भयोऽहं भवानी भवानीपते निर्भयो सारे दुःखान्यसह्यानि जह्यां जगन्नाथ देवा भवन्तं विना मे गतिर्नैव शम्भो दयालो न जागर्ति किं वा दयाते दयालो न जागर्ति किं वा दयाते शब्दो नमः पूर्व एष स्मरन् मुक्ति कृन् मृत्युः तत्त्ववाचि महेशानमागान् मनस्तो वचस्तः सदा मह्यमेतत् प्रदानं प्रयच्छ सदा मह्यमेतत् प्रदानं प्रयच्छ पश्य शीतांशु मौलि प्रिये भेषजं त्वं भवत्याधिशान्तौ बहु क्लेशभाजं परां भोजबोधे भवान्तौ निमग्नं नयस्वाद्यपारम् भवाग्धौ निमग्नं नयस्वाद्यपारम् निप्ररोहैः अवामस्फुरच्चारुरामोरुशोभैः अनङ्गभ्रमद्भोगिभूषाविशेषैरचन्द्रार्धचूडैरलं दैवतैर्नः अकण्ठे कलङ्कादनङ्गे भुजङ्गात् अपाणौ कपालादपालेन लाक्षात् अमौताशशाङ्कादवामे कलत्रात् अहं देव मन्यं न मन्ये न मन्ये अहं देव मन्यं न मन्ये शम्भो गिरीश त्रिशूलिन् त्वयिदं समस्तं विभातीति यस्मात् शिवादन्यथा दैवतं नाभिजाने शिवोऽहं 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 यतो जायते दं प्रपञ्चं विचित्रं स्थितियाति यस्मिन् यदेकान्तमन्ते सकर्मादिहीनस्वयं ज्योतिरात्मा शिवोऽहं 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 किरीटे निशेषो ललाटे हुताशो भुजे भोगिराजो गले कालिमा च तनौ कामिनी यस्य तत्तुल्यदेवं न जाने 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 अनेनस्तवेनादरादम्बिकेशं परां भक्तिमासाद्ययं येन मन्ति मृतौ निर्भयास्ते जनास्तं भजन्ते हृदं भोजमध्ये सदासीनमीशम् हृदं भोजमध्ये सदासीनमीशम् भुजङ्गप्रिया कल्पशम्भोमयैवं भुजङ्गप्रयातेन वृत्तेन क्लृप्तम् नरस्तोत्रमेतत् पठित्वोरुभक्त्या सुपुत्रायुरारोग्यमैश्वर्यमेति सु ఐశ్వర్యమేతి సుపుత్రాయురారోగ్యమైశ్వర్యమేతి సుపుత్రాయురారోగ్యమైశ్వర్యమేతి.